श्रीललिता सहस्रनामस्तोत्रफलश्रुतिः इत्येतन्नाम साहस्रं कथितन्ते घटोद्भवा रहस्यानां रहस्यं च ललिता प्रीतिदायकं सर्वापमृत्युशमनं कालमृत्युनिवारणं सर्वज्वरातिशमनं दीर्घायुष्यप्रदायकम् अनेन सदृशं स्तोत्रं न भूतं न भविष्यति सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनं पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् इदं विशेषा श्रीदेव्याः स्तोत्रं प्रीतिविदायकम् जपे नित्यं प्रयत्नेन ललितोपास्ति तत्परः प्रातः स्नात्वा विधानेन सन्ध्या कर्म समाप्य च पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा रहस्यनाम साहस्रम् इदं पश्चात् पठेन्नरः जन्म मध्ये सकृच्छापि येतत् पठते सुधीः तस्य पुण्यफलं वक्ष्ये शृणुत्वं कुम्भसम्भव गङ्गादि सर्वतीर्थेषु यस्नायात् कोटिजन्मसु कोटिलिङ्गप्रतिष्ठाञ्च यः कुर्यादविमुक्तके कुरुक्षेत्रे तु यो दद्या कोटिवारं न विग्रहे कोटिसुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु यः कोटिहयमेधानाम् आहरेद् गाङ्गरोधसी आचरेत् कूपकोटिर्यो निर्जले मरुभूतले दुर्भिक्षेयः प्रतिदिनं कोटिब्राह्मणभोजनम् श्रद्धया परया कुर्यात् सहस्रं परिवत्सरान् तत्पुण्यं कोटिगुणितं भवेत् पुण्यमनुत्तमम् रहस्यनाम साहस्रे नाम्नोपेकस्य कीर्तनात् रहस्यनाम साहस्रे नामैकमपि यः पठेत् तस्य पापानि नश्यन्ति महान्त्यपि न संशयः नित्यकर्मानुष्ठानात् निषिद्धकरणादपि यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवं बहुनात्र किमुक्तेन शृणुत्वं कुम्भसम्भव तत्रैव नान्नो यासक्तिः पातकानां निवर्तने तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश यश्चक्त्वा नाम साहस्रं पापहानिमभीप्सति स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते भक्तो यः कीर्तये नित्यम् इदं नाम सहस्रकं तस्मै श्रीललिता देवी प्रीताभीष्टं प्रयच्छति अकीर्तयन्निधं स्तोत्रं कथं भक्तो भविष्यति नित्यं सङ्कीर्तनासक्तः कीर्तयेत् पुण्यवासरे सङ्क्रान्तौ विषुवे चैव स्वजन्मात्रितये नये नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे कीर्तयेन्नाम साहस्रं पौर्णमास्यां विशेषतः पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकां पञ्चोपचारैः सम्पूज्य पठेन्नाम सहस्रकं सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यञ्च विन्दति अयम् आयुष्करो नाम प्रयोगः कल्पचोदितः ज्वरातिं शिरसि स्पृष्ट्वा पठेन्नाम सहस्रकम् तत्क्षणात् प्रशमं याति शिरो बाधा ज्वरोऽपि च सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्मजपेदिदं तद्भस्मधारणादेव नश्यन्ति व्याधयक्षणात् जलं सम्मञ्च्य कुम्भस्थं नाम साहस्रतो मुने अभिषिञ्चे गृहगस्तान् ग्रहा नश्यन्ति तत्क्षणात् सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकां यः पटे नाम साहस्रं विषं तस्य विनश्यति वन्ध्यानां पुत्रलाभाय नाम साहस्रमन्त्रितं नवनीतं प्रदद्यातु पुत्रलाभं भवेद्ध्रुवम् देव्या पासेन सम्बन्धाम् आकृष्टा मङ्कुशेन च ध्यात्वाभीष्टां स्त्रियं रात्रौ जपे नाम सहस्रकम् आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता राजा कर्षण कामश्चेत् राजा वसत दिग्मुखः त्रिरात्रं यः पठेदेतत् श्रीदेवी ध्यान तत्परः स राजा पारवस्येन तुरङ्गं वामतङ्गजम् आरुह्यायाति निकटं दासवत् प्रणिपत्य च तस्मै राज्यं च कोशं च ददात्येव वसङ्गतः रहस्य नाम साहस्रं यः कीर्तयति नित्यसः तन्मुखालोकमात्रेण मुह्ये लोकत्रयं मुने यस्त्विदं नाम साहस्रं सकृत् पठति भक्तिमान् तस्य ये सत्रवस्तेषां निहन्ति सरभेश्वरः यो वाभिचारं कुरुते नाम साहस्रपाठके निर्वत्य तत्क्रियां हन्यात् तं वै प्रत्यङ्गिरा स्वयं ये क्रूरदृष्ट्या वीक्षन्ते नाम साहस्रपाठकं तासन्धां कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः धनं यो हरते चोरैः नाम साहस्रजापिनः यत्र यत्र स्थितं वापि क्षेत्रपालो निहन्ति तं विद्या सुकुरुते वादं यो विद्वान् नाम जापिनः तस्य वाक्स्तम्भनं सद्यः करोति न कुलेश्वरी यो राजा कुरुते वैरं नाम साहस्रजापिना चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयं यः पटे नाम साहस्रं षण्मासं भक्तिसंयुतः लक्ष्मी चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे मासमेकं प्रतिदिनं त्रिवारं यः पठे नरः भारती तस्य जिह्वाग्र रङ्गे नृत्यति नित्यसः यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः मुह्यन्ति कामवसगाः मृगाक्षस्तस्य वीक्षणात् यः पठेन्नाम साहस्रं जन्म मध्ये सकृन्नरः तद्दृष्टिगोचरात् सर्वे मुच्यन्ति सर्वकिल्बिषैः यो वेत्ति नाम साहस्रं तस्मै देयं द्विजन्मने अन्नं वस्त्रं धनं धान्यं धान्येभ्यस्तु कदाचन श्रीमन्तराजं यो वेत्ति श्रीचक्रं यः समर्चति यः कीर्तयति नामानि तं सत्पात्रं विदुर्भुदाः तस्मै देयं प्रयत्नेन श्रीदेवी प्रियमिच्छत न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः पशुतुल्यः स विज्ञेयः तस्मै दत्तं निरर्थकं परीक्ष विद्या विदुषः सैभ्यो दद्या द्विचक्षणः श्रीमन्त्रराजः सदृशो यथा मन्त्रो न विद्यते देवता ललिता तुल्या यथा नास्ति घटोद्भव रहस्य नाम साहस्र तुल्या नास्ति तथा स्तुतिः लिखित्वा पुस्तके यस्तु नाम साहस्रमुत्तमम् समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी बहुनात्र किमुक्तेन शृणुत्वं कुम्भसंभव ज्ञानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते तस्मादुपासको नित्यं कीर्तयेदिदमादरात् येभिर्नाम सहस्रैस्तु श्रीचक्रं योच्चयेत् सकृत् पद्मैर्वा तुलसीपत्रैः कल्हारैर्वा कदम्बकैः चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः सा वेत्ति ललिता देवी स्वचक्रार्जनजं फलम् अन्ये कथं विजानीयुः ब्रह्माद्या स्वल्पमेधसः प्रतिमासं पौर्णमास्या मेभिर्नाम सहस्रकैः रात्रौ यश्चक्रराजस्थाम् अर्चयेत् परदेवतान् स एव ललिता रूपा सद्रूपा ललिता स्वयम् न तयो विद्यते भेदो भेदकृत् पापकृत् भवेत् महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् अर्चयेन्नाम सहस्रैः तस्य मुक्तिकरे स्थिता यस्तु नाम सहस्रेण शुक्रवारे समर्चयेत् चक्रराजे महादेवीं तस्य पुण्यफलं शृणु सर्वान् कामान् अवाप्नोति सर्वसौभाग्यसंयुतः पुत्रपौत्रादि संयुक्तो भुक्त्वा भोगान्यधेप्सितान् अन्ते श्रीललिता देव्याः सायुज्यमति दुर्लभम् प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः यः सहस्रं ब्राह्मणानां मेभिर्नाम सहस्रकैः समच्च भोजयेद्भक्त्या पायसापूपषड्रसैः तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते निष्कामः कीर्तयेद्यस्तु नाम साहस्रमुत्तमम् ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् धनाधीधनमाप्नोति यशोद्धि चाप्नुयाद्य सः विद्याधि चाप्नुयाद्विद्यां नाम साहस्रकीर्तनात् ज्ञानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने कीर्तनीयमिदं तस्मात् भोगमोक्षादिभिन्नरैः चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा स्वधर्मासमनुष्ठान वैकल्या परिपूर्तये कलौ पापैकबहुले धर्मानुष्ठानवर्जिते नाम सङ्कीर्तनं मुक्त्वा नृणा नान्यपरायणम् लौकिकाद्वचनान्मुख्यम् विष्णुनामानुकीर्तनम् विष्णुनाम सहस्रौच्च शिवनामैकमुत्तमम् शिवनाम सहस्राच्च देव्यानामैकमुत्तमम् देवीनाम सहस्राणि कोटिसन्ति कुम्भज तेषु मुख्यम् दशविधम् नाम सहस्रमुच्यते गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललितादश गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललितादश गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललितादश रहस्य नाम साहस्रम् इदं श्रेष्ठं दशस्वपि तस्मात् सङ्कीर्तये नित्यम् కలిదోష నివృత్తయే ముఖ్యం శ్రీమాతృనామేతి నజానంతి విమోహితాః విష్ణునామ పరాః కేచిత్ శివనామ పరాః పరే న కశ్చిదపి లోకేషు లలితానామ తత్పరః ఏనాన్యదేవతానామ కీర్తితం జన్మకోటిషు తస్యేవ భవతి శ్రద్ధా శ్రీదేవి నామ కీర్తనే చరమే జన్మనియథా శ్రీ విద్యోపాసకో భవేత్ నామ సాహస్ర పాఠశ్చ తథా చరమ జన్మని యథైవ విరళా లోకే శ్రీ విద్యాచార వేదినః తథైవ విరళా లోకే నామ సాహస్ర పాఠకాః మంత్రరాజ జపం చైవ చక్రరాజార్చనం తథా రహస్య నామ పాఠశ్చ నాల్పస్య తపసః ఫలం అపఠన్ నామ సాహస్రం ప్రీణయేద్యో మహేశ్వరీ న చక్షుషా వినా రూపం పశ్చేదేవ విమూఢదీః రహస్య నామ సాహస్రం త్యక్త్వా యః సిద్ధికాముకః సభోజనం వినా నూనం క్షున్నివృత్తిమభీప్సతి యో భక్తో లలితాదేవ్యాః సన్నిత్యం కీర్తయేదిదం నాన్యథా ప్రియతే దేవీ కల్పకోటిశతైరపి తస్మాద్రహస్య నామాని శ్రీమాతుః ప్రయతః పఠేత్ ఇతి తే కథితం స్తోత్రం రహస్యం కుంభసంభవ నా విద్యా వేదినే బ్రూయాత్ నా భక్తాయ కదాచన యథైవ గోప్యా శ్రీ విద్యా తథా గోప్యమిదం మునే పశుతుల్యేషు న బ్రూయాత్ జనేషు స్తోత్రముత్తమం యో దదాతి విమూఢాత్మా శ్రీ విద్యారహితాయ చ తస్మై కుప్యంతి యోగిన్యో సోనర్ధం సుమహాన్ స్మృతః రహస్య నామ సాహస్రం తస్మాత్ సంగోపయేదిదం స్వాతంత్రేణ మయా నోక్తం తవాపి కలసోద్భవ లలితా ప్రేరణేనైవ మయోక్తం స్తోత్రముత్తమం కీర్తనీయమిదం భక్త్యా కుంభయోనే నిరంతరం తేన తుష్టా మహాదేవీ తవాభీష్టం ప్రదాశతి ఇత్తుక్త్వా శ్రీహయగ్రీవః ధ్యాత్వా శ్రీలలితాంబికాం ఆనందభగ్న హృదయః సద్యః పులకితోభవత్. ఇతి శ్రీ బ్రహ్మాండ పురాణే ఉత్తరఖండే శ్రీహయగ్రీవాగస్త్య సంవాదే శ్రీలలితారహస్యనామ సాహస్రఫలనిరూపణం సంపూర్ణం.